सर्वेभ्यो नमः, स्वागतं। वयं प्रार्थनां वदामः। राधा भगिनी,
ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनापतितमस्तु, मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनापतितमस्तु, मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनापतितमस्तु, मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ।
धन्यवादः भगिनी। अस्तु, प्रथमतया वयं शीला भगिन्याः उपस्थापनं शृणुमः। तस्य कथा उपायेन शक्यं सर्वमस्ति।
उपायेन शक्यं सर्वम्। I'm Sheila Dawadi. I will do the English translation first of this katha. Upayana sakyam sarvam. Able to find a solution to all. Kasmin siddha aranye vasurakaha nama singaha vasatisma. Somewhere in the forest, name of the lion is Vasurakaha, is used to live. Vasurakaha pratidinam anekan saha ativa saktishali. He was very strong. Vasurakaha pratidinam anekan mrigan vina karanam marayati sma. He used to kill animals without any reason. Etena vanasya anne mrigaha kastam anubhavanti sma. एतेन वनस्य अन्ये मृगाः कष्टम् अनुभवन्ति स्म. रेस्ट् आफ् द अदर्
रेस्ट् आफ् द एनिमल्स् इन् द फारेस्ट्
वर् ट्रबल्ड्. अतः एकदा ते मृगाः सम्भूय गत्वा भासुरकं प्रार्थितवन्तः, स्वामिन् विना कारणम् एवं मृगाणां मारणेन भवतः कः लाभः. वन् डे आल् द एनिमल्स् वेण्ट् टु भासुरकः टु से वै आर् यु स्वामिन् इस् अ सल्युटेशन् सम्बोधन. What is the profit that you'll get killing animals without any reason? Ekasya eva mrigasya khadanena bhavatah udaram purnam bhavati khila. Your stomach gets filled by eating only one animal, right? Ataha adya arabhya bhavatah ahararartham pratidinam ekam mrigam vayameva praveshi 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 प्रेषयिष्यामः
प्रेषयिष्यामः
therefore from today we will bring one deer every day for your food
not one deer mrigah it means
animal
not a deer
okay one animal per day
every day
bhavantam mrigam khadatu you eat that deer animal anyan mrigan na pidayatu iti do not give pain to rest of the animals they
do
said
do not hurt
sorry
do not hurt
oh do not hurt other animal they requested tada pasurakah uktavan tathaiva astu and then bhasurakah said yeah is that so
let it be like that tathaiva astu
okay
so
he agreed parantu yasmin dine mama samipam mrigah na agamishyati tasmin dine sarvan api mrigan marayishyami eva iti if that day the animal will not come in front of me I will kill
the day animal does not come in front of me that day I will kill all the animals
that day I will kill all the animals yes mrigah tat angikritavantah the animals agreed to it tata arabhya pratidinam jatikramena ek mrigah vasurakasya aharatvena gacchati sma from that day every day one deer used to go for the food for his food vasurakah tam khadati sma vasurakah used to eat that animal anya mrigah nirbhayam aranye sancharanti sma other animals roam around the forest without fear kadachit jatikramena kenachit sasakena bhasurakasya ahara rupena gantavyam apatitam from somewhere by the roll some
jatikramena means like the first rabbits then foxes like that so by the whatever like first rabbits then monkeys like how they do like that one day when they were following that order a rabbit had to go
सः ससकः दुःखेन सिंहसमीपं प्रस्थितवान् the rabbit went in front of the lion with sad feeling मार्गे एकः कूपः आसीत् on the road one well was there
कूपः
आसीत् कूपस्य उपरि गमनसमये ससकः स्वस्य प्रतिबिम्बं तत्र दृष्टवान् looking on top of the well rabbit saw his own image tada tasya manasi kastana upaya spuritah then one solution came to his mind aham bhasurakam etasmin kupe pachayishyami iti chintayan saha bilambena bhasurakasya samipam gatavan I will make him fall into this well, thinking that he reads a delay in front of a lion. अद्य मृगः समये न आगतः इति भासुरकः अतीव कुपितः आसीत्. Lion was very angry. Dear animal did not come in time. Animal did not come till now, like on time. तदा ससकः मन्द मन्द गत्वा प्रणम्य तस्य पुरतः स्थितवान्. Then after going slowly, slowly in front of lion, rabbit stand and salute. Tarjayan Vasurakaha Uktavan, He Sasakadham, Samaye Agantavyam Iti Parigyanam Nasti Va Bhavataha. Don't you know you should come on time? Bhavan Bilambaha Kritavan Kila. You came in late, right? Ataha Prathamam Bhavantam Khaditva Anantaram Sarvam Mriga Kula Meva Ma Nasa Ishyami Iti. First I will eat you and then I will kill all the animals, he said. Bhagini, can you move the screen? तदा ससकः विनयेन उक्तवान्. देन् रेबिट् सेड् पोलैट्लि, स्वामिन् मया अपराधः न कृतः. लोर्ड् इट्स् नाट् मै फाल्ट्. भवतः समीपं समये आगन्तव्यम् इत्येव अहं प्रस्थितः. ऐ लीव् टु कम् हियर् आन् टैम् टु कम् इन् फ्रण्ट् आफ् यू. परन्तु मार्गे अन्यः एकः सिंहः आसीत्. बट् आन् द वे देर् इस् अनदर् लायन्. देर् लिव् अनदर् लायन्. सः मां दृष्ट्वा पृष्टवान् भवान् कुत्र गच्छति इति. लुकिङ्ग् एट् मी ही आस्क्ड् मी वेर् एम् ऐ गोयिङ्ग्, वेर् आर् यू गोयिङ्ग्. भासुरकस्य आहारार्थं गच्छामि. I'm going to Vasuraka's food.
As Vasuraka's food.
Aham uktavan, I said. Tada saha uktavan etat mama aranyam. Then he said, it's my forest. Atra sarve api mrigaha mama agya palayeyu. So all animals should follow my order. भासुरकः कुत्र अस्ति? वेर् इस् भासुरकः? सः चोरसिंहः स्यात्. देट् इस् चोरसिंहः इस् अ
नमस्कारः नीना.
नमस्कारः नीना
भगिनी. ही इस् अ थीफ् लायन्. भवान् तम् अत्र आनयतु. यु ब्रिङ्ग् हिम् हियर्. आवयोः मध्ये युद्धं भवतु. यु ब्रिङ्ग् हिम् हियर् एण्ड् देन् लेट् द फैट् हेव् बिट्वीन् टु अफ़् अस्. युद्धे यः जयति सः एव भवन्तं खादतु इति. Whoever wins in the war will eat you. तस्य सूचनानुसारम् अहम् अत्र आगतवान्. I'm just conveying his message to you. अतः एव विलम्बः जातः इति. देट् इस् वै ऐ एम् लेट्. एवं तर्हि तं सिंहम् इदानीम् एव मारयामि. इस् देट् सो? ऐ विल् किल् देट् लायन् एस् वेल्. रैट् नौ, इदानीम् इस् रैट् नौ. ओके, सः कुत्र अस्ति? वेर् इस् हि? प्रदर्शयतु, शो मी इति भासुरकः उक्तवान्. भासुरकः सेड् ससकः तं कूपसमीपं नीतवान्. कूपं प्रदर्शितवान् च. Rabbit showed him, took him near the well and showed him. Bhasurakah tatra jale swasya pratibimbam drishtavan. Bhasurakah saw his own shadow? No.
Reflection.
Krodena garjanam kritavan. Loudly roar. Bhagini, can you move forward? Kupataha ito, kupataha itopi uchaihi pratidvanihi agataha. Inside the well, loud noise came back. Pasurakah tam pratibimbena swasya pratispardhin gatva tam marayitum tasya upari akramanam kritavan. Bhasurakah went into the well to kill that shadow, kill that reflection. Kupaha madde patitaha saha jale nimagnaha mritaha cha. He fell into the well in under the water and then died. Upayana sakyam sarvam. Upayana tritiya vibhakti. Sakyam. Sakyam is what, Bhagini? Sarvam is a sarvanama. Tasmanship is a avyaya. Aranya is a napunsakalinga, nama padam?
Saptami
vibhakti. Vasurakaha is a karta here. Singha is a, also karta. Vashati is a kriya padam. Maha is a avyaya. Saha ativa saktishali. Asti is a hidden kriya pada. Ativa is a avyaya, saha is a karta. Saha is a karta, yes. Saha is a karta. Saktisali is a karma padam. Bhasurakaha pratidinam anekan mrigan bina karanam marayati isma. Marayati is a kriya padam. Bhasurakaha is a karta. Mrigan is a karma. Anekan mrigan. Anekan is a visheshana. Visheshana of a mrigan. Vina and sma is a avyaya. Etena vanashya anye mrigaha kastam anubhavanti sma. Etena is a sarvanama padam. Vanashya sachya vibhakti ekvachan. Anye sarvanama. Mrigaha kartahir bahuvachan. Kastam is a karma padam. Anubhavanti is a kriya padam bahuvachan. Latlakara. Sma is a avyaya. Ata ekada te mrigaha sambhuya gatva bhasurakam prarthitavantaha. Ataha ekada is a avyaya. Te is a sarvanama padam. Mrigaha is a karta. Sambhuya is a kriya, yap pratyaya. Gatva is a tvanta pratyaya. Bhasurakam is a karma padam. Prasita vantaha is a kriya padam. Tavatu pratyaya bahuvatan. Swamin vina karadam evam mrigana maranena bhavataha kahalavaha. Swamin sambodana vina karanam evam abhyaya. Mriganam sasti vivakti bahuvatan. Maranena tritiya vivakti ekvatan. Bhavataha sasti vivakti ekvatan. Kaha is a prasnavataka sabdaha. Labhaha is a pulinga sabdaha.
One minute, Bhagini.
कारणम् एव इस् आल्सो अव्ययम्
एव इस् अव्ययम् बट् कारणम् इस् नाट्
ओके
विना
विना एन् एवम् इस् अव्यय
एवम् एवं बोत् आफ् देम् आर् कर्मपदम् इस् वाट् ऐ थाट् द्वितीया रैट्
No, not evam. Evam is definitely avyayam.
Yeah, evam is avyayam.
What about karana?
That is karma padam.
Okay. No, karana is a karma padam. Okay.
Rajiv, can I call you back? I didn't think
karana was... Sorry for me. I thought mruganam is the karma padam. Karanam, I thought
एकस्य एव मृगस्य खादनेन भवतः उदरं पूर्णं भवति किल एकस्य षष्ठिविभक्ति एव इस् अव्यय मृगस्य षष्ठिविभक्ति एकवचन खादनेन तृतीया विभक्ति भवतः इस् अ षष्ठिविभक्ति एकवचन उदरम् इस् अ कर्तृपदम् हियर् पूर्णम् इस् अ कर्मपदं भवति इस् अ क्रिया Kila is avyaya.
No, udaram is not kartipadam.
Udaram is a kartipadam. It's a dutiya vibhakti.
How is it kartipadam? Kartipadam, karta is a doer, right? So, udaram cannot be kartipadam while it is dutiya.
Kaha bhavati?
Udaram
bhavati.
सिंहः भवति
इन् दिस् सेण्टेन्स्
सिंहस्य उदरं
करेक्ट् सो उदरं विल् बि कर्ता इट्स् नाट् फिटिङ्ग् रैट् कर्ता इस् एक्चुलि ऐ मीन् हौ केन् उदरं बि कर्ता
इट् इस् नाट् उदरम् इस् नपुंसकलिङ्गं रैट्
No, but still, ekasya eva mrugasya khadaneena bhavataha udaram purnam bhavati.
So
bhavataha might be karta, but, or reference to karta, but not udaram, I feel. Anyway.
But what becomes?
Okay. Yeah, I mean, udaram does so become purnam, but the subject...
Udaram being filled, so it is...
Yeah, so it is still Simhaha. In my opinion, the Karta is still Simhaha, it's hidden, and is only referenced, kind of referential context here.
Okay.
Bhagini, can you get back on this clarity, Bhagini?
Okay.
Thank you.
अतः अद्य आरभ्य भवतः आहारार्थं प्रतिदिनम् एकं मृगं वयम् एव प्रेषयिष्यामः अद्य ओ मै सोरि एकस्य
अतः अद्य आरभ्य
अतः अद्य इस् अव्यय आरभ्य इस् क्रियापद भवतः इस् अस्ति विभक्ति एकवचन आहारार्थम् इस् द्वितीया विभक्ति प्रतिदिनम् एकम् इस् जस्ट् द्वितीया विभक्ति मृगम् इस् अ कर्मपदम् वयमेव इस् अ कर्ता प्रेषयिष्यामः इस् अ भविष्यत्काल
वयमेव इस् नोट् अ कर्ता वयमेव Yes, vayam plus eva. So there vayam and is hidden. Like you have to break it out. So vayam is the karta and eva is avyayam.
Vayam eva. Presa ishyamaha kriya uttamapurus bahuvachan bhavishya kalsuchaka. Bhavan tam mrigam khadatu. Bhavan is the karta, tam is the karma. Khadatu is a root lakara, prathamapurus, parasmepada. Tam mrigam is a both karma padam. Anyan mrigan no pidayatu iti. Anyan is a visheshana of visheshana. Mrigan is a karma padam. Pidayatu kriya pada lot lakara prathamapurus ekvachan iti abhyaya. तव भासुरकः उक्तवान् तदा इज अव्यय भासुरकः इज कर्ता उक्तवान् इज तव तु प्रत्यय क्रियापद तथैव अस्तु इज अव्यय सॉरी तथैव इज अव्यय अस्तु इज क्रियापद तथा एव परन्तु इज अव्यय यस्मिन् इज यस्मिन् एण्ड् तस्मिन् इज सर्वनामपदभगिनी न सः दिने सप्तमी विभक्ति मम इज षष्ठी विभक्ति समीपं जस्ट नामपदम् इत्यादि विभक्ति जस्ट नाम स्थितिगः इज कर्ता न आगमिष्यति इज क्रियापदं भविष्यत्कालसूत्रक दिने सप्तमी विभक्ति सर्वान् अपि मृगान् इज क्रमपदं मारयिष्यामि इज क्रियापदं भविष्यत्कालसूत्रकः मृगाः तत् अङ्गीकृतवन्तः मृगाः इज कर्ता बहुवचन तत् इज क्रमपदम् अङ्गीकृतवन्तः क्रियापद भवतु प्रत्यय बहुवचन अतः ततः इज अव्यय आरभ्य ल्यप् प्रत्यय प्रतिदिनं जातिक्रमेण एकः मृगः वासुरकस्य आहारत्वेन गच्छति स्म मृगः इज कर्ता गच्छति इज क्रियापद जातिक्रमेण भासुरकस्य षष्ठीविभक्ति आहारत्वेन तृतीयाविभक्ति भासुरकः तं खादति स्म भासुरकः इज कर्ता तम् इज कर्म खादति इज क्रिया स्म इज अव्यय अन्ये मृगाः निर्भयम् अरण्ये सञ्चरति स्म सञ्चरति इज क्रिया मृगाः इज कर्ता बहुवचन निर्भयम् इज कर्म अन्ये सप्तमी विभक्ति अरण्ये सप्तमी विभक्ति स्म अव्यय कदाचित् जातिक्रमेण केनचित् शशकेन भासुरकस्य आहाररूपेण गन्तव्यम् आपतितम् कदाचित् इज अव्यय केनचित् अव्यय
भगिनी केन हियर मी
यस्
महोदय अन्ये वाट् इस् अन्ये भगिनी
अन्ये इज सप्तमी विभक्ति भगिनी और अव्यय
अव्यय
अव्यय ओके
थैंक यू
कदाचित्
sorry actually I think anye
I thought it is a saptami vibhakti anye
I think pronoun
pronoun
sarvanama shabda
I'll
clarify again and then I'll tell you next week
gantavyam apatitavan tav
Apatitam, right?
Apatitam. That is a kriyapadam, gantavyam and apatitam. Ta pratyaya?
Apatitam and gantavyam is?
Gantavyam is ta pratyaya, ta pratyaya.
Na. Gantavyam is a new one. Tavyat.
Tavyat.
Bhagini, what did you say was apatitam?
Kta pratyaya.
Saha sasakaha dukhena singhasamitam prasthitavan. Saha is a karta. Sorry, sasakaha is a karta. Dukhena pretya vibhakti. Singhasamitam is a karma. Prasthitavan is a tavatu pratyaya kriyapada.
Marge. Saha is also the kartrupadam, right?
It can also be adjective to shashakaha because it's describing which shashakaha.
So is it an adjective here or is it a kartrupadam?
It can also be kartrupadam.
Okay, both ways.
Yeah, it's a visheshanam and a kartrupadam with shashakaha.
Marge ekaha kupaha asit. Kupaha is a karta, asit is a kriya. Ekaha kupaha is a, ekaha is the same like a sasaka, saha sasakaha in the other sentence. Ekaha is a visheshana of kupa. Kupasya upai gamana samaye sasakaha sasya pratibimba tatra drishtavan. Kupasya is a sasti vivakti. Sasakaha is a karta. Drishtavan is a kriyapada. Tavatu pratyaya. Tatra is a gamana samaye is a satami vibhakti bhagini. Swasya is a word bhagini here. Is it sasti vibhakti? Pratibimbam is a karma, drishtavan is a kriya. Tada tasya manasi kastana upaye sphuritaha. Tada is a vyaya, tasya sasti vibhakti. Manasi is a manas sapta, saptami vibhakti. This is a new, I learned new word here. Manas is a sakaranta sabda, saptami vibhakti. Kashchana is a vyaya, upayaha is a karta, suritaha is a kriya. Aham bhasurakam etasmin kupe pata ishyami iti chintayan saha prati saha vilambena bhasuraka samipam gatavan. Aham is a karta, bhasurakam is a karma. Etasmin is a visheshanam, saptami vibhakti. Kupe is a saptami vibhakti. Ata ishyami, kriyapada, bhavishyatkala sutraka. Iti is abhyaya. Chintayan is a shatrupratyaya bhagini. Kriyapada.
Shatrupratyaya.
Saha is a karta. Vilambena, dvitiya vibhakti. Bhasurakasya sasti vibhakti. Samipam is a karma padam. Gatavan is a tavatu pratyaya kriya padam. Adya mrigaha samaye na agataha iti bhasurakaha ativa kupitaha asita. Adya is a vyaya. Mrigaha is a karta. Samaye sasti vibhakti. Saptami vibhakti. Ekvachan. Na is a vyaya. Agata is the kriyapada. Iti is a vyaya. Bhasurakaha is a karta. Ativa is a vyaya. Kupitaha is a visheshana. Asit is a kriya. Tada bhas तदा शासकः मन्दं मन्दं गत्वा प्रणम्य तस्य पुरतः स्थितवान्. तदा इज अव्यय. शासकः इज कर्ता. मन्दं मन्दम् इज विशेषणं. गत्वा इज त्वान्तरूपं क्रियापद. प्रणम्य इज ल्यक् प्रत्यय. तस्य षष्ठी विभक्ति. पुरतः इज अव्यय भगिनी रे. पुरतः स्थितवान् इज तावत् प्रत्यय. तं तर्जयन् तं तर्जयन् भासुरकः उक्तवान्. तम् इज अ कर्मपदं. तर्जयन् इज अ शत्रुप्रत्यय. दिस् इस् आल्सो न्यू फोर् मी. शत्रुप्रत्यय. भासुरकः इज कर्ता. उक्तवान् इज तवतु प्रत्यय. रे सशकार्थम् इज सम्बोधन. समये आगन्तव्यम् इति परिज्ञानं नास्ति वा भवतः. आगन्तव्यम् इज क्रियापद. तव तव्यत् प्रत्यय भगिनि. तव्यत् इति इज अव्यय. परिज्ञानम् इज अ कर्मपदं. नास्ति इज अ क्रियापदं. वा इज अव्यय. भवतः इज अ षष्ठी विभक्ति. एकवचन. भवान् विलम्बः कृतवान् किल. भवान् इज अ कर्मपदं. सारि कर्ता. विलम्बम् इज अ कर्मपदं. कृतवान् इज क्रिया. किल इज अव्यय. अतः प्रथमं भवन्तं खादित्वा अनन्तरं सर्वान् मृगकुलम् एव नाशयिष्यामि इति. अतः इज अव्यय. प्रथम भवन्तम् इज भवन्तम् इज क्रियापदं. प्रथमः इज भवन्तम्. भवन्तम् इज कर्मपदं. प्रथमम् इज विशेषणम् अभवन्तम्. खादित्वा इज त्वा प्रत्यय. अनन्तरम् इज अव्यय. सर्वम् इज अ टु वर्ड् सन्धि हियर् भगिनि. सर्व एण्ड् अहं. सर्वं न sarvam
no I don't think so there is any sandhi here.
Word.
It's no. A single word.
Single word.
Okay. Sarvam mriga kulan mriga kulam eva nasayishyami iti. Mriga kulam is a karma. Nasayishyami kriya. Bhavishyat kala suchana suchanam iti idavyaya.
Bhagini, sarvam would be an adjective, right?
I think it's sarvanam here.
It's a sarvanam padam and a visheshanam.
Tada sasakaha vinayena uktavan. Tada is avyaya. Sasakaha is a karta. Vinayena kritiya vivakti bhava vataka sabda. Uktavan is a tavatu pratyaya. Amin sambodhana. Maya aparadha naha kritaha. कृत इज तवतु प्रत्यय. अपराधः इज कर्ता. न इज अव्यय. भवतः समीपं समये आगन्तव्यम् इत्येव अहं प्रस्थितः. भवतः इज षष्ठी विभक्ति. समीपम् इज कर्मपदं. समये षष्ठी सप्तमी विभक्ति. आगन्तव्यम् इज तव्यत् प्रत्यय. इत्येव इज अव्यय. अहम् इज कर्ता. प्रस्थितः इज क्रियापदं. ता प्रत्यय. परन्तु मार्गे अन्ये एकः सिंहः आसीत्. परन्तु इज अव्यय. मार्गे सप्तमी विभक्ति. अन्य एक सिंहः इज अन्य एक इज अ विशेषणम् आफ् सिंहः. इज कर्ता. asit is a kriya pada saha mam drashtva prishtavan bhavan saha mam drashtva prishtavan saha is a karta mam is a what do you this mam mam is a karma padam bhagini mam
no it's sixth vibhakti right
mama is a shashti vibhakti
mama is shashti
then mam is dvitiya
mam is dvitiya
karma padam drashtva jatva
prathama ekavachanam bhagini
kim bhagini
mam oh okay no no
dvitiya
पृष्टवान् तावत्तु प्रत्यय भवान् कुत्र गच्छति भवान् इज अ सम्बोधन कुत्र इज अव्यय गच्छति इज अ क्रिया इति इज अव्यय भास्वकस्य आहारार्थं गच्छामि भास्वकस्य षष्ठीविभक्ति आहारार्थं कर्मपदम् गच्छामि इस् उत्तमपुरुष क्रियापदम् एकवचन इस् अव्यय अहम् उक्तवान् अहम् इस् कर्ता उक्तवान् इस् तावत् प्रत्यय
सः मां दृष्ट्वा पृष्टवान् केन् यु से वाट् द टु वर्ब्स् आर् दृष्ट्वा एण्ड् पृष्टवान् वाट् द क्रिया
दृष्ट्वा पृष्टवान् दृष्ट्वा इस् अ त्वा प्रत्यय एण्ड् पृष्टवान् इस् अ तवतु प्रत्यय आर्थनं गच्छामि अहम् उक्तवान् ओके तदा सः उक्तवान् तदा इज अ व्यय सः इज अ कर्ता उक्तवान् इज तवतु प्रत्यय एतत् मम आरण्यम् एतत् द्वितीया विभक्ति मम इज षष्ठी विभक्ति अरण्यम् इज कर्मपदम् अस्ति हिडन् क्रियापदम् इज हिडन् इन् दिस् सेण्टेन्स् अत्र सर्वे अपि मृगाः मम आज्ञं पालयेयुः सः कर्ता सारि अत्र अत्र इस् अव्यय सर्व इस् सर्व इस् वट् भगिनि सर्व सर्व सर्वे इस्
Just saying who are, all of you.
Api is avyaya. Mriga is a karta. Mrigaha is a karta, bahuvachan. Mama, tashti vibhakti.
No, no, no. Mrigaha is not kartrupadam, right?
No, mrigaha is a karta.
No, kriyapadam pashyantu.
Mrigaha.
Palayeyuhu.
Palayeyuhu is a kriyapadaya.
So what will the
karta right bhagini mrigaha is a karta
na palayeyuh that is madhyama purushah
so I did not get you bhagini
palayeyuh its subject will be yum we see if we say see khadami then we say kartapadam is aham like that palayeyuh yuyam
so that's hidden so, is it
yeah
hidden.
But yuyam means mrigaha
okay
so can we say mrigaha is the kartapada
it's better if you say yuyam
Vasurakaha kutra asti. Vasurakaha is a karta. Kutra is a vyaya. Asti is a kriyapada. Saha chura singha syat. Saha is a karta. Chura singha is a visheshana. Syat is a kriyapada. Bhavan tam atra anayatu. Bhavan is a karta. Tam is a karma padam. Dutiya vibhakti. Atra is a vyaya. Anayayu. Anayatu is a kriyapada. Vrtlakara. Avayoho madhe yuddham bhavatu. Avayoho is a karta. Madhe saptami vibhakti. Yuddham is a karma padam. Bhavatu is a kriyapada. Vrtlakara. Vidye yaha dayati saha evam bhavantam khadatu iti. Yudde saptami vivakti. Yaha is a karta. Dayati is a kriya. Saha is a karta again. Yaha saha. Both. Evam is a vyaya. Bhavantam is a karma padam. Khadatu is a kriya pada. Lotlakara. Iti is a vyaya. Tasya sutananusaram aham atra agatavan. Tasya sati vivakti. Sutananusaram karma padam. Aham is a karta. Atra is a vyaya. Agatavan is a stavatu pratyaya. Kriya pada. Ataha eva vilambaha jataha iti. Ataha avyaya. Eva is what bhagini here?
Avyayam.
Avyayam.
Avyayam. Vilambaha is a Vilambaha is a karta?
Vilambaha jataha.
Jataha is a kriyapada. Itti is a vyaya.
Evam tarhi.
Sorry?
What is Vilambaha? What word is that then?
Kartrupadam. Kartrupadam.
Yeah. Okay.
Evam tarhi tam simham idanim eva marayami. Evam tarhi abhyaya. Tam simham is a karma. Katta. Idanim eva abhyaya. Marayami is a kriyapada, uttama purus. Aham is a hidden here. Aham is a karta. Saha kutra asti. Saha is a karta. Kutra is a vyaya. Asti is a kriyapada. Pradarsayatu is also kriyapada. Iti Vasurakaha Uktavan. Iti is avyaya. Vasurakaha is a karta. Uktavan is a tavatu pratyaya kriyapada. Sasakaha tam upa samipam nitavan upam pradarshitavan sa. Sasakaha is a karta. Tam is a karma padam. Upa samipam is a karma padam also. Tam is a visheshana bhagini.
Tam is karma padam.
Tam upasamipam is both karma padam, right?
Yes.
Nitavan is a tavatu pratyaya. Upam is a karma padam. Pradarsitavan is a tavatu pratyaya. Cha is a vyaya. Vasurakaha tatra.
Upasamipam bhagini?
Karma padam.
And it has visheshanam and visheshyam, right?
No.
No? I thought kupa is visheshanam.
No, kupa is a well. It's namapadam.
Sorry, samipam is the visheshanam.
Kupa samipam, one word. Right now.
Oh, it's a single word.
Yeah, let's not break it up for now.
Vasurakaha tatra jale swasya pratibimbam drishtavan. Vasurakaha is a karta, tatra is a vyaya, jale satami vivakti. Swasya is a swa shabda,
this word also came earlier. Pratibimbam is a karma padam. Drishtavan is a tavatu pratyaya. Krodhena garjanam kritavan. Krodhena tritiya vibhakti. Garjanam is a karma padam. Kritavan tavatu pratyaya kriya. Kupatah itopi pratidhvani agatah. Kupatah panchami vibhakti. Itopi is a avyaya. Pratidhvani is a karta. Agata is a kriyapada.
Uchaihi.
Krodhena gardanam kritavan. Krodhena tritiya vibhakti. Gardanam is a karmapadam. Kritavan is a tavatu pratyaya. Upatah. Oh, I went in that already.
You already did that. Bhasurakaha yeah. is well.
Bhasurakaha tam pratibimbam eva swasya pratispardhin gatva tam maraitum tasya upari akraman kritavan. Bhasurakaha is a karta. Tam pratibimbam is a karmaparam. Pratispardhin also karma padam. Katva, svantarupam. Tam is a karma padam. Maraitum is the tumun pratyaya. Tasya, tasya vivakti. Upari is the avyaya. Akramanam is a. Is it karma padam, Bhagini, or anama pada? Akramanam. Also karma padam, Bhagini. Kritavan is a tavatu pratyaya. Kupa madhe patitaha saha jale nimagna mritaha cha. Kupa madhe saptami vibhakti. Patitaha is a kriyapada. Saha is a karta. Jale saptami vibhakti. Nimagna is a kriyapada. Mritaha is a kriyapada. Cha is avyaya.
Bhagini, I have a question.
And I have several.
Kim Bhagini?
What the verb pradarshayatu, is it a particular kind of pratyaya? Anayatu, pradarshayatu?
Lotlakara. Lotlakara, Bhagini.
Lotlakara, ek vachan, Bhagini.
Thank you.
Okay, I also have several questions, but first, Sheela Bhagni, I think that was a great effort considering how big the story was. But I don't know if I agree with a few of your observations actually. But, like, for example, in one place you said Aharatam was Dvitiya, Dvitiya Vibhakti. I am not sure if
I don't think Aharatam, just answer for Kimartam.
Correct. So there were a few, I'm not sure I agree. Plus, also, Bhagini, Kadambari Bhagini, I actually have a few questions. Like, let's start from this one at the bottom. There it is, Kupa Madhye Patitaha Saha Jale Nimaknaha Mrutaha Cha. You cannot have more than one verb in a sentence. I mean, that's what we've been teaching, right? Taught.
No.
So, I've actually attended other classes also, and they insist that there can only be one verb in a Lakaraha form. Other verbs can only be in a pratyaya form. So here, the patitaha and the nimagnaha, are they actually in some kind of a pratyaya form?
Yeah.
Which one is that?
Kta pratyaya.
Okay, which we have not learned yet.
Yes, we have learned about it a little because mrutaha.
That's fine then. That's what I wanted to point out, that all of these are not, you can't call them kriyapatam, Sheela Bhagni. We have to specify that it's a pratyaya.
We'll just call them because it will make it easier to just learn for now, then we'll change it.
No, but there are all the other pratyas we are mentioning, right? So I feel this needs to be mentioned too, otherwise it gives a wrong impression.
I think Bhagini mentioned the pratyas.
I don't think she did, but that's fine. Then the next sentence I had, and this is not really about, Bhagini doing it or not. I have my own, I have doubts because I'm trying to learn these things. Then there's a sentence that says, Maya aparadhaha na krutaha. I'm a little confused with that sentence because I would have thought the sentence would be Aham aparadhaha na krutaha, right? Why is it saying Maya aparadhaha na krutaha?
The mistake wasn't done by me.
Mistake wasn't done by
I haven't done anything like that.
Mm-hmm. Okay.
I think the voice, no, the sentence structure, active voice, passive voice.
Yeah, it was different. Okay. Then the other question I had was, that's already answered actually. My question was, Adhyam Rugaha Samaye Na Agataha. I was going to ask about the Agatha, but you just responded in that other situation. Okay. Then this one also. Sada Tasya Manasi Kashchana Upayaha Spuritaha. Here I thought maybe it would have said Tada Tasya Manasi Kashchana Upayam Spuritaha.
Upayaha.
Why is it Upayaha? Why is Upayaha not in Dvitiya Vibhakti here?
Because it's not Karmapadam. Kaha Spuritaha.
Kaha Spuritaha?
Yeah.
And not Kim Spuritaha?
No.
Okay, I mean, but would it have been wrong to say Upayam?
Yeah.
Or can it also be Upayam?
No. It can only be Upayaha.
Okay.
The Kaha comes because of the question, is it?
No, kaha comes because of upayaha, that's why, because upayaha is in Prathama Vibhakti, Purush, Purlingam, so that's why kaha. But I was actually thinking, the Karma Padam here is upayam, is what I was thinking, and so I was surprised that it was upayaha. Okay, and then last sentence, Ataha Eva Vilambaha Jataha, but I think even this one you answered. The Vilambaha Jataha, you said Vilambaha here is Kartrupadam. I don't understand how. How is Vilambaha Kartrupadam?
Vilambaha, Kaha Jataha.
So Bhagini, is that the only question? I mean, as long as it answers Kaha, it's Kartrupadam, is it? It doesn't really have to be like so even inanimate objects of this nature, like Vilambaha, even that can become Kartrupadam?
Yes.
Okay.
Bhagini, one more doubt. What is the word Swasya? What do you...
Atva Shabdaha Iti Asti. Tasya Shashti Swasya. His own.
Then you
are. And Swasya can also be Avyayam. His or her own.
That's okay. Thanks.
Any Prashna Hasantiva?
No, but again, class for Sila.
Yeah. Wait.
Previous presentation was very helpful, and thank you Bhagini for helping me.
No problem, Bhagini.
I have a request. I actually, so I looked at the timing, Bhagni. Unfortunately, next week, I mean the week that was, that is now assigned to me, 6:27. I cannot do that week. So either I can do 6:20 or 7:04. Is anybody willing to switch with me?
I think Chitra Bhagini is very busy right now, so maybe I'll switch her to 6:27.
Okay.
So. Yeah.
I'll also ask with her if she's okay with that.
Yeah.
Okay.
I'll email her.
Yeah.
And if that's okay, then I'll change it. Okay.
Okay.
Yeah. Or
but if not,
I'll ask Priya Bhagini, and then
okay.
One of them will probably say yes. So.
Dhanyavada. Yeah.
And will you keep the same katha or will it?
No, katha will be same because I started working on it.
Okay. Then okay.
Yeah.
So then we'll, everybody will have the same kata. You'll move to 6:20 or 7:04.
Yes.
I'll let you know which one.
Thank you.
Prashna. So we've done four of them.
Bhagini, why is it called upastha? What is that? Upastha maha? Upastha, yeah, why is it called this upastha panani? What does this mean?
Like lecture, Bhagini.
Like what?
Lecture.
Oh, lecture, okay. All right.
Like presentation, like that. And I think I have to change one thing. I'll have to write that again.
What is the word?
Upasthapanani. Yeah.
Bhagini, one more question. I mean, how to do the Sanskrit keyboard in our computer? Do you have any video or any guidance?
Yes, I forgot. 1 minute. I'll note that down. I can send it in the email, in our class recording email. I told last week, but I forgot. So I'll send it in the email, how to do it.
Yes, I need to practice Sanskrit keyboard.
So you can do that, or you can also add an extension. That's pretty easy, actually. Samskritam, that's pretty easy. Do you want me to show the extension right now?
Yes, please.
Okay.
Is everybody okay?
Yeah, is everybody okay with that?
Yeah.
Okay. So you go to the Google Web Store and you add the extension. Google Input Tools. This. It's called Google Input Tools. So I already have it. That's why it says remove from Chrome. So if you add it, here maybe I'll remove it and then I'll add it. Okay. So then it says it has been added. If you go to that, you will see extension options. There you'll get all these languages. You'll have to go all the way down to Sanskrit. So there'll be three. you can, the first one for me is enough, but you can add all three. I usually add all three. Okay, so if you added all three, then you can close that, and then you will have to go, I'll just use our Krishna Palakam for now, our blackboard. You'll have to enable it. So you'll have to click Samskritam. Then you can type.
Oh, sorry, how do we know it's on? The keyboard is on?
You click the extension thing. Okay. Then you pin. Click the pin button.
Pin? So I can't see the pin, Bhagini. Where is pin?
You see, if you click the extension button, then you see Google Input Tools.
No, we don't see that. Okay.
No,
the screen, we can't see that.
Oh, you can't see that pop-up box?
No.
Oh, you mean in my shared screen?
Yes.
Okay, 1 minute. For now, maybe I'll just share my whole desktop so that you can see it. Okay, here if you click this, now can you see?
No, Bhagini.
Okay.
It will pop up the screen to say it's been active.
Wait. Okay, can you see it now?
Yes.
Okay, so you see Google Input Tools.
Yes.
Then you see this pin button, right?
Okay.
If you pin it, it'll appear here.
Okay.
So you click that. It'll just be first black. Then you click Samskritam. It'll be blue. That means you're using it.
Okay.
And then you can type.
Okay, Vagini. Look, and then it will works on Google Docs only, right?
Not just on Google Docs. Even if you you can do it on your email too. You can do it on a slide.
Okay.
Anywhere, because it's on Chrome, but
okay.
Only on Chrome.
Okay. Thank you, Bhagini.
Any other questions? Any question or Santiva? Asta. Subhashitam punaha patita vantahava.
Haan, Bhagini.
तस्य प्रश्नाः सन्ति वा तस्य विषये
नास्ति
सर्वे पठितवन्तः वा
ऐ वास् फोकस् आन् मै प्रेजेण्टेशन् भगिनि
अस्तु अस्तु वयं एतत् आगामिसप्ताहे कुर्मः इदानीं वयं गीतासोपानं कुर्मः अस्तु दृश्यते वा
दृश्यते भगिनि कमिङ्ग् एण्ड् गोयिङ्ग् ओके इट्स् आन् नौ
अस्तु एतत् न कृतवन्तः किल अस्तु चित्रे वृक्षस्य मूलं फलं च दृष्ट्वा सङ्ख्याम् अनुसृत्य कस्य मूल्यस्य किं फलम् इति लिखत अत्र अस्ति एकम् इति अस्ति क्रोधः अहङ्कारस्य फलं क्रोधः क्षमायाः वृन्दा भगिनी भवती शृणोति, लक्ष्मी भगिनी भवती वदतु.
क्षमायाः फलं शान्तिः.
शान्तिः. अनन्तरं नागेन्द्रमहोदय.
उद्वेगस्य फलं सन्तापः.
उद्वेगः इत्युक्ते फस्.
फस् इस् द कम्प्लेनिङ्ग् रैट् भगिनि.
सन्तापः इत्युक्ते ग्रीफ्, सारो. अनन्तरम् आशा, राधा भगिनी.
आशाया फलं दुःखम्.
आशा इत्युक्ते होप्, एक्स्पेक्टेशन् इति.
एक्स्पेक्टेशन्.
भक्तिः. लक्ष्मी भगिनी.
भक्तेः फलं.
भक्तेः
फलं भगवद्गुरुग्रह.
भगवदनुग्रहः. समीचीनं भगिनि. अनन्तरं
भक्त्याः अपि करेक्ट् रैट्? भक्तेः और् भक्त्याः.
आं भगिनि. अस्तु, अनन्तरं नागेन्द्रमहोदय.
द्वेषस्य फलं मनस्तापः.
समीचीनम्. अनन्तरं राधा भगिनी.
शुचितया फलम् आरोग्यम्.
शुचितायाः
फलम् आरोग्यम्.
समीचीनम्. अनन्तरं लक्ष्मी भगिनी.
परोपकारः. परोपकारस्य फलं पुण्यम्.
समीचीनं. नागेन्द्रमहोदय.
सेवायाः फलं मनः शान्ति.
राधा भगिनी.
परिश्रमस्य फलं साफल्यम्.
समीचीनम्. प्रश्नाः सन्ति वा? अस्तु. कः प्रथमं सुभाषितं पठति?
अहं पठामि.
अस्तु.
पुण्यस्य फलमिच्छन्ति, पुण्यं ने इच्छन्ति मानवाः. फलं पापस्य नेच्छन्ति, पापं कुर्वन्ति यत्नतः.
पुण्यस्य फलम् इच्छन्ति, पुण्यं न इच्छन्ति मानवाः. फलं पापस्य न इच्छन्ति, पापं कुर्वन्ति यत्नतः. जनाः पुण्यस्य फलमिच्छन्ति किन्तु पुण्यकार्याणि कर्तुं न इच्छन्ति. अत्र पुण्यस्य फलम् इच्छन्ति, पुण्यं नेच्छन्ति मानवाः. अत्र प्रथमभागे षष्ठी विभक्तिः कुत्र अस्ति?
पुण्यस्य.
पुण्यस्य. समीचीनं. तत्र इच्छन्ति इति फलम् इच्छन्ति इति तत्र अस्ति इच्छन्ति, अनन्तरं न इच्छन्ति नेच्छन्ति तत्रापि इच्छन्ति इति अस्ति। तत्र मानवाः इत्युक्ते जनाः, पुण्यस्य वयं पुण्यस्य फलम् इच्छामः, किन्तु पुण्यकार्याणि कर्तुं न इच्छामः। जनाः पुण्यस्य फलमिच्छन्ति किन्तु पुण्यकार्याणि कर्तुं न इच्छन्ति। अनन्तरं फलं पापस्य न इच्छन्ति, पापं कुर्वन्ति यत्नतः। पापस्य फलं न इच्छन्ति किन्तु प्रयत्नेन पापकार्याणि कुर्वन्ति। द्वितीयभागे षष्टिविभक्तिः कुत्र अस्ति?
पापस्य।
तत्र प्रथमभागे पुण्यस्य फलमिच्छन्ति पुण्यं नेच्छन्ति मानवाः, मानवाः पुण्यस्य फलम् इच्छन्ति किं पुण्यं न इच्छन्ति, पुण्यं कर्तुं न इच्छन्ति इति वदन्ति। फलं पापस्य नेच्छन्ति, पापं कुर्वन्ति यत्नतः। पापस्य फलं न यच्छन्ति किन्तु प्रयत्नेन पापकार्याणि कुर्वन्ति।
विना प्रयत्नेन अपि पापकार्यं कुर्वन्ति।
अस्तु, द्वितीयं कः वदति?
हस्तस्य भूषणं दानं सत्यं, कण्ठस्य भूषणं हस्तस्य भूषणं दानं सत्यं, हस्तस्य भूषणं दानं सत्यं, कण्ठस्य भूषणं श्रोत्रस्य भूषणं शास्त्रं, भूषणे किं प्रयोजनम्?
हस्तस्य भूषणं दानं, ornament for the hand is giving. Satyam kantasya bhushanam, to say the truth is the throat's ornament. Shrotrasya bhushanam shastram, to hear the good things is the ears ornament. Bhushanaihi kim prayojanam, the ornaments that we wear, what is the use of those? दानकरणम् एव हस्तस्य भूषणं, सत्यभाषणम् एव कण्ठस्य भूषणं, शास्त्रश्रवणम् एव कर्णस्य भूषणम्। अतः अन्यैः आभरणैः किमपि प्रयोजनं नास्ति। अत्र प्रथमभागे हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणं, कुत्र कुत्र षष्टिविभक्तिः अस्ति?
हस्तस्य कण्ठस्य।
द्वितीयभागे
श्रोत्रस्य।
समीचीनं
भगिनि, इति श्लोकसर्वं भगवद्गीता?
न महोदय, ऐ डोण्ट् थिङ्क् सो।
Because numbers are not given. If it's from Gita, number will be given.
Not like that. Sometimes they don't give.
Okay.
Okay. Next. Any questions on the first two?
No questions.
Last one. Lakshmi Bhagini.
Papanam shodakam nityam paranandasya bodhakam rochakam चिन्तवृत्तीनां भक्तव्यं नाम मङ्गलम्।
भगवतः नाम पापानां शोधनं भवति, शोधनं करोति। परा आनन्दं बोधयति। चित्तवृत्तीनां रोचकं भवति, अतः तत् सेवनीयम्। अस्तु,
शोधनम् इत्युक्ते
क्लीन्स्।
क्लीन्स्,
आर् देर् एनी क्वश्चन्स् हियर्? अत्र पापानां शोधकं नित्यं परानन्दस्य बोधकं, तत्र षष्ठीभक्ति कुत्र कुत्र अस्ति?
पापानाम् अण्ड् परानन्दस्य, पापानाम् इस् अ बहुवचन, षष्ठी बहुवचन।
रोचकं चित्तवृत्तीनां भजत्वं नाम मङ्गलं, तत्र कुत्र अस्ति?
चित्तवृत्तीनां
भजत्वं नाम मङ्गलं, समीचीनम्। अस्तु, अत्र अत्र श्लोकेषु नवपदशब्दाः सन्ति, कुत्र षष्ठीविभक्तिः अस्ति, कुत्र कुत्र अस्ति? पुण्यस्य, पापस्य, हस्तस्य, कण्ठस्य, श्रोत्रस्य, पापानां, परानन्दस्य, चित्तवृत्तीनां।
One more left, Bhagini.
Huh.
Only 8 are there, but the Ek lines are 9.
Ek namshah, pashyame.
Rochakam.
No. Rochakam. Papanam, Chitta Vrittinam, Paranandasya, Hastasya, Shrotrasya, Khantasya, Punyasya, न जानामि किमर्थम्।
रोचकं मीनिङ्ग्,
एकनिमिषः भगिनि, किं भगिनि?
चित्तवृत्तीनां रोचकं भवति।
रोचकम् इत्युक्ते एन्लैट्निङ्ग्,
इण्ट्रेस्टिङ्ग्, इस् इट् इण्ट्रेस्टिङ्ग् भगिनि रोचकम्
इति चिन्तयामि।
रोचते इस् लैक् अ लैक् इट् रैट्? रोचते, अहं मधुरं रोचते, रोचामि।
एतत् गृहपाठरूपेण कुर्वन्तु। अस्तु, वयमेतत् आगामिसप्ताहे कुर्मः। अस्तु, प्रश्नाः सन्ति वा? अस्तु, शीला भगिनी।
ॐ सर्वे सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्तिः। श्रीगुरुभ्यो नमः। हरि ओम्।
धन्यवादः भगिनी।